Glory to morning prayer. Sovatsaradi madinastava vandanani bhumi jushau parigrihana bhuva patenaha sanmangalani sadhani jayottarani Natha Shriyam Tavayasha Parito Bhanantu Namani Te Dashashatani Vidu Purana Kim Te Shute Priyatamo Bhananama Bhavyo Kim Shishta Loka Namanaya Dadasi Nama Kim nama dushta damanaya parau vibharshi Nama niche namana sadhana mashritana Dhamma nite bhavana sadhana madbhutana Kena shritashaya vidhiv vitanoshi namna Kenad bhutam jagadidam prakaroshi dhamma Adhyasya dhamma bhavuvasyati dhamma bhuma Nishabdayeva bahunama dadasya nama Kimva katham kvacha kutascha vayam prapanna Tatte padam paramabho prithagucharama Yatra svayam chalayiva chalatunga bhasi Yoma bhanila kalayam tarito vilasi Tante dasham Adasha santatam ujjvalanti Pashyan padam bhajati kopi jana priyante Bhatya vashunyam ivakam varasandasaram Shanti sthira pichalati vavichitra garbha Mukam Niruchvasita kalpamidam cha vishvam Sakapi vagvinayate prathamam prasrishta Tamadinada vibhavar bahudha vibhinna Brahmanda janma bharana abhyudaya prasakta Ucchai padani bhajatam urukamadogdhri Vacham param bhagavatim samanusmaramaha Vishvaprasuti subhagaya divakparasya Shraddhakater bhavati chit bhuvanasya dhatri Bhavye bhavatyakhila vastuni bhuta jate Sarvantare jayati sa hridayangamanaha Shraddheti kanchidabhidam abhidam dadhana Vesham vinayavanikantara jasragana Nirdharana bhuvana rangarata bhimana Manunnata jayati chin natanayakasya Adhara bhumirakhiladruhinandakoti Rangasthalasya nirupadhika nityanada Nakshatra chitra paridhana vitana murdhi Bhasvatpada vyajanichas स्वयमेव सेयो समर्पितेव परिपत्यमुत परस्ताः धमन्यनश्वर दिनान्यमृतक्षयाणि सेदं प्रसूरिह च संतमसेन घोरेभ्याशां ददाति शरणौ भरणौ च सामः ध्वन्ते महत्यपि महत्सहजौ दधाना मर्त्ये किमप्यमृत वैभवमदधाना नित्यं तरौ नरसुरावपि संदधाना वामकृतिर्जयति नो जगतोऽस्य माता मायैव लोचनतिरस्करिणी पुरस्तात् छायैव सा पुनरनु व्रजति अपश्चात् सा भाति न पुनरितुम्बरभाविलासा चित्तेषु सा जयति नो जगदेकमाता।
ग्लोरी टू श्री अरबिंदोस गायत्री।
तदतुलौ कुशलानि दद्विदां अपहरच्छतमांसि परमोऽहो यतुमदा पदमपदमाशिरो लसतु संततमं ततमं शिवो स भगवन्नगभूपति संनिभ सुरधुरीव दया हृदयाद्यत नरभुवो फलिनीं गुरवे दधात् अमरताउ जयते जयते जसे विहितवान रविंद महामुनि कुशल पद्धति मंग्रिजुषाउ विदां गगन केशयोर्ध्वकलधरो जयति भूतल भूतल सत्पद तुरगवेगयिवंशुसहस्रिणा किरणसारवुदारदृशो मुनेः दिवमनन्तभुवौ परितः परिक्रमरतो विरतो विरिवोर्दते वरमिदं जननं मनुजन्मना अमल भारत भुवनय धुना यमः परमं परमार्थिना लसति संप्रति संप्रतिपत्तये रमण सत्कर सार विकासिते कमरिनी हृदय करहु सरे पतिरुपैष्यति वाहतवाधुना भवहितो वहितो वहनाय रे रुचमपार कृपारसवाहिनी उदयशैलचिरपरिचुम्बिनी मुहुरलोकविधौ प्रदिशन्नुदेत् अवन बंधुर बंधुर दूरभा पदचतुष्टय पीठमधिष्ठितौ जयति यद्भुवनत्रय मूर्धनी तदिह पुञ्जमनन्तरुचौ वयौ पृथुलया कलया करितौ मम जय विधौ भुवने विजयो मुने नय विधौ जगतो नयनौ स्वयौ प्रियविधौ रसयवनलिप्यते लयविधौ विलया विलया धिया तिलकितौ मासैव शरीरिणा निखिलसृष्टिललाटमदोन्नभ अजनीयस्य लवस्य विलसतो भुवनमूलन चालन चारुता पर्वता विषयैरपि धीमता अनृत नृत्यरतः निहतेव धीहि हृदयमस्तु मुध परिचिन्तनैर्ज्वलन भाषमिता शमितास्तु ते रतमनारतमन्तरमुत्तरे मम जगज्जगदीश्वर पुष्करे वपुरिदो यदि भौममनादर तदिहनु सहते सहते न क्यों सतु मदंतर भवरनयिता जडधियं निखिले निखिलात्मधी द्यतु मदापदमस्मृति संभव विभवतो भवतो चलधी विभा धियमलश्वर धाम समयुषी निहितवानसि जन्मनि मे विभो सपदि साधयितुं पलिनिञ्चतां प्रभवते भवते भगवन् नमो नम सदा शिरसा नम रे हृदा नमम सर्वमिदं तु तवेति वा सकलवस्तु समं नम पुरुषं शिवतमाकृतिमाकृति साधनो
ग्लोरी टू भारत सोल ऑफ इंडिया
अनादि कालादवदिं विधूय कष्टान्यरिष्टान्यनुभूय भूय उद्धारणासक्तमनासुतानां भूमङ्गलायद्य समुद्यतासि गङ्गावरङ्गादिवदेवि शम्भो अम्भोजबन्धोरिव भानुमाला प्रभापवित्र तव सत्यधारा निरन्तरा भरति भति नित्या अस्तु परोधो भवतु पराग तव श्रियं सन्ततभासनस्य तथापि ते भरति नित्यसिद्ध प्रकाशतामेति पुनः प्रभाव नानागुणानां जनताभिधानां अखण्डभूमण्डलभूषणानां तत्तद्विशेषानुगुणेन सारां सङ्गृह्यसम्मानयसि त्वमर्या सञ्चित्य सञ्चित्य पुरोपभोगान् संस्कारभूयिष्टबलासि जाता बहुप्रभेदस्य मनुष्यजातस्यादर्श एकोऽसि निदर्शनाय यस्य शुभ्रज्वलनकलया भारतीयान्तरात्मा व्यक्तीभूय प्रचुरजनता धरमूलौ बिभर्ति यस्य सत्त्वो हृदय सुगमं प्राप्य धीरा ध्रियन्ते स नो माता जयति भरत क्षोणिरक्षामधाम भूमावस्यं मनुजदनुजैरर्दितायामुदास्याः दास्याद्दीनौ नरकुलमसल्लोकतो मोचयित्री धीरश्लाघ्यं धवलयशसौ बिभ्रति पुत्रवर्गौ सेयं माता जयति भरत क्षोणिरक्षामधाम तेजो मूर्त्यु सकल जगति क्षेम भारं अप्यम्ब त्वं भरत धरण्यर् अन्तरात्मेति विद्म याचामस्त्वं तदिति जननी उज्ज्वलस्ते प्रसाद सर्वङ्गैर्न समुदय भर सम्पदाम् आविरस्तु।
ग्लोरी टु साधना
तदेवेदौ दृश्यं प्रकृतमथवा दृश्यमपि समस्तं सम्प्राहुः चरमचरमप्यागमदृश कदासीदारम्भ परिणतिरपि क्वास्य जगत् कुतः कस्मिन्नेव प्रथितमिह को वेदजनिम शिवसम्ब श्रीमान् हरिरिति च सच्चेत् सुखवपुः परं ब्रह्मेत्याहो जगदुदयभङ्गस्थितिकरौ अमायी मायी वा भवतु परमात्मा स भगवान् कथं भूयो भूयो जगदिदमनर्थं प्रकुरुतां न खेलन् न खेलन् भुवन भवनस्थमविलयै उदास्ते अध्यात्मा किमु जडचितोस्तर्हि न विदा जगत्क्रीडा रामो विसृजति हरण्येवमिति चे निरर्थे किं कार्ये प्रभुरवतरे दर्भक इव स एकः सम्पूर्णो न भवति तथोऽन्यत् किमपि चेत् कथं नाना भाव पुरत उपतिष्ठेच्च परित अखण्डप्रज्ञोऽसौ न भवति तथोज्ञं किमपि चेत् कथं कारं ब्रूमो जडगतिमहान्धं जगदिदं अथैको भूतानां भुवनजनिकर्ता स भगवान् स्वयं सर्वो जातो निरवधिकचिन्मोदयति चेत् स्वरूपे निरूपे प्रभवितुरखण्डे च गहने कथं सम्मुवा कथमिव च शोकोन्तरमियात् अमीभिः सन्देहे शिथिलितवपूर्वेदनजडं मनोयन्मन्दानां चरति मृगवद्गाधचरितं तदेवं वादानां अनवधिकधीभ्रमजुषा प्ररोहन् पर्णानाम् अयुतमिव पश्यन्ति सुधिय किमस्मादस्माभिर्विमतिभिरिवस्थेयमिति चेत् विचेयौ चिन्तानां प्रथममिह मूलौ स्थितिपदौ अयुक्तस्थतु चेत् शिशुरनुपलब्धध्रुवगति किमद्रेरारोहे त्वरितगमनेव प्रयतताम् मनोराज्ये प्राज्ये विहरतु जनस्तर्कचतुरो निराधारं भारं वहति ममतोद्वाहनिपुण निराशेऽप्याकाशे भजतु कमलं वा मधुकरो वयं तूष्णीं भावे ध्रुवपदगतैश्यामकतिना अलौ दर्शौ दर्शौ विषयपटलीं बुद्बुदनिभा अलौ भावौ भावौ भुवनसुखदौ दैवतगणौ अलौ कृत्वा चर्चां अरसपदजालार्थजरठां सकृत्सम्बध्यानौ प्रथयति हि मौनस्य विभवौ
Glory to the divine glory.
Dhyata mantra dharayurta srajatiya buddhi prakritya shiva arambha sthira chintana irmati mata siddhe pravaho yata दृश्ये भ्रम्यति देशकालविवृते विश्वस्थितिर्वायया सशक्तिर्निखिलण्डकोटिसवितुर्व्याख्यातुनस्तत्पदौ आधानद्विदितप्रभावविसरो विश्वस्य यो मूर्तिमान् कालं यस्य जगद्विसृष्टिकरणं कार्यार्थरूपं विदु माने हेतुरयं च भेदनिलयो देशो यदालम्बना तस्मै ध्वस्ततमो घनाय महसा ताताय तुभ्यं नमो सत्यासत्यविवेचकः स भगवान् धर्मो विधारे ध्रुव कल्याणार्थकरो हरिर्जनिमतां अन्तर्विमानोद्यमी प्राणत्राणपरायणस्थितिमतां रुद्रोऽपि कामार्तिहा धर्मार्थे क्षणकारणस्य जगत् शास्तस्तवैतेऽंशव रूपं ते वियदुत्तमं कृतिमती शक्तिपरा तपसी जातं सर्वमजण्डकं तु युवयो अन्योन्यतादीपकं शान्तिः सर्वसमापि भूतकरुणा न त्वं यतु क्षमा सर्वात्म्यं भजतस्तवेश महिमा सीमानमुल्लङ्गते श्लिष्यन्ति గహనంబరం రసితే శక్తి శరీరం విభో ప్రేమ ప్రశ్వసితే నవం వితనుతే సర్వత్ర గూఢాం శ్రియం సాంద్రానందకతాయ యథా వపుషివా ఘర్మాంభసంమాలికా వైరించండ పరంపరాయతయం తారకతిర్నృత్యతి. అఖండం ప్రజ్ఞానం జగదుదయ భంగ స్థితి గుణం గుణాతీత శక్తి స్తవ సహచరీ విశ్వజననీ అనంత శేషాత్మా భవసి చ జగద్భార భరితో నదన్నంతర్భూతేష్వణురసి మహాంసోసి భగవన్. అవిశ్లేష్యం త్వత్తశుచిరమభజం నాథ జగతాం అజానన్నర్ధం తే భువన జననీ ప్రాణదయితాం తథాప్యస్య దమ్మే చరితమపరాధం నగణయస్ అహో ఆమన్యున్న ప్రథనపటు దంపత్య మహిమా. తస్మాదేనం తవ పదజుషం త్వత్కటాక్షోపజీవ్యం నాథ శ్రీమన్ కుశలకరణ సాధు సంధాయ జీయా సాతే సక్త మహితవ జనే బిభ్రతి కార్య భారం దృష్టర్జీయత్ భువన జయిని సర్వసామ్రాజ్యలక్ష్మీ.